पृष्ठ संख्या 35, सप्तमः पाठः, संकल्पः सिद्धिदायकः।
पार्वती शिवं पतिरूपेण अवांछत्। एतदर्थं सा तपस्यां कर्तुम् ऐच्छत्। सा स्वकीयं मनोरथं मात्रे न्यवेदयत्। तच्छ्रुत्वा माता मैना चिंताकुला अभवत्। मैना
वत्से, मनीषिताः देवताः गृहे एव सन्ति, तपः कठिनं भवति, तव शरीरं सुकोमलं वर्तते, गृहे एव वस, अत्रैव तवाभिलाषः सफलः भविष्यति।
पार्वती अम्ब, तादृशः अभिलाषः तु तपसा एव पूर्णः भविष्यति, अन्यथा तादृशं पतिं कथं प्राप्स्यामि? अहं तपः एव चरिष्यामि इति मम संकल्पः। मैना
पुत्री, त्वमेव मे जीवनाभिलाषः।
पार्वती सत्यं, परं मम मनः लक्ष्यं प्राप्तुम् आकुलितं वर्तते। सिद्धिं प्राप्य पुनः तवैव शरणम् आगमिष्यामि। अद्यैव विजयया साकं गौरीशिखरं गच्छामि। ततः पार्वती निष्क्रामति। पार्वती मनसा वचसा कर्मणा च तपः एव तपति स्म। कदाचित् रात्रौ स्थण्डिले, कदाचिच्च शिलायां स्वपीति स्म। एकदा विजया अवदत्। विजया
सखी, तपः प्रभावात् हिंस्रपशवोऽपि तव सखायः जाताः, पञ्चाग्निव्रतमपि त्वम् अतपः, पुनरपि तव अभिलाषः न पूर्णः अभवत्।
पार्वती अयि विजये, किं न जानासि मनस्वी कदापि धैर्यं न परित्यजति, अपि च मनोरथानां अगतिः नास्ति। विजया
त्वं वेदम् अधीतवती, यज्ञं सम्पादितवती, तपः कारणात् जगति तव प्रसिद्धिः, अपर्णा इति नाम्ना अपि त्वं प्रथिता, पुनरपि तपसः फलं नैव दृश्यते। पृष्ठसंख्या 36।
पार्वती अयि आतुरहृदये, कथं त्वं चिन्तिता? नेपथ्ये अयि भो, अहम् आश्रमवटुः, जलं वाञ्छामि। ससम्भ्रमम् विजये, पश्य कोऽपि वटुः आगतोऽस्ति। विजया झटिति अगच्छत्। सहसैव वटुरूपधारी शिवः तत्र प्राविशत्। विजया
वटो, स्वागतं ते, उपविशतु भवान्। इयं मे सखी पार्वती, शिवं प्राप्तुम् अत्र तपः करोति।
वटुः
हे तपस्विने, किं क्रियार्थं पूजोपकरणं वर्तते? स्नानार्थं जलं सुलभं, भोजनार्थं फलं वर्तते। त्वं तु जानासि एव शरीरमाद्यं खलु धर्मसाधनम्।
पार्वती तूष्णीं तिष्ठति। वटुः
हे तपस्विनि, किमर्थं तपः तपसि? शिवाय।
पार्वती पुनः तूष्णीं तिष्ठति। विजया आकुलीभूय,
आम्, तस्मै एव तपः तपति।
वटुरूपधारी शिवः सहसैव उच्चैः उपहसति।
पृष्ठसंख्या 37।
वटुः
अयि पार्वती, सत्यमेव त्वं शिवं पतिम् इच्छसि?
उपहसन्।
नाम्ना शिवः अन्यथा अशिवः, श्मशाने वसति, यस्य त्रीणि नेत्राणि वसनं व्याघ्रचर्म अंगरागः चिताभस्म परिजनाश्च भूतगणाः किं तमेव शिवं पतिम् इच्छसि।
पार्वती क्रुद्धा सती, अरे वाचाल अपसर, जगति न कोऽपि शिवस्य यथार्थं स्वरूपं जानाति, यथा त्वमसि तथैव वदसि। विजयां प्रति सखी चल, यः निन्दां करोति सः तु पापभाग् भवति, एव यः शृणोति सोऽपि पापभाग् भवति। पार्वती द्रुतगत्या निष्क्रामति, तदैव पृष्ठतः वटोः रूपं परित्यज्य शिवः तस्याः हस्तं गृह्णाति। पार्वती लज्जया कम्पते। शिवः:
पार्वती, प्रीतोऽस्मि तव संकल्पेन, अद्य प्रभृति अहं तव तपोभिः क्रीतदासोऽस्मि।
विनतानना पार्वती विहसति।